एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रतिनिधि सभा सदस्यानां निर्वाचने सम्पूर्ण मतेषु प्रतिशतं त्रिसंख्यकानि मतानि प्राप्तव्यद्भि राजनीतिक दलै समानुपातिक प्रणाल्या पक्षस्य प्रत्याशिनां नामावली निर्वाचन आयोगे प्रस्तुतास्ति। निर्वाचने समग्र मतानां न्यूनतोऽपि प्रतिशतं त्रीणि मतानि लब्धवत्सु दलेषु राष्ट्रिय स्वतन्त्र दलेन, नेपाली कांग्रेस दलेन, नेकपा एमाले दलेन, नेपाली कम्युनिष्ट दलेन, श्रम संस्कृति दलेन, राष्ट्रिय प्रजातन्त्र दलेन च प्रत्याशिनां नामावली प्रस्तुता अस्ति इति आयोगस्य सहायक प्रवक्ता कुलबहादुर जीशी असूचयत्। दलै प्रस्तुता सूची आयोगस्य प्रक्रियायाः अनुसारेण अस्ति नवेति विषये अनुसन्धाय समानुपातिक पक्षतः निर्वाचितानां सांसदानां नामानि सार्वजनिक करिष्यते इति सहायक प्रवक्ता जीशी असूचयत्। निर्वाचन आयोगेन चैत्र मासस्य प्रथम सप्ताहाभ्यन्तरे निर्वाचन प्रतिवेदनं राष्ट्रपतेः समक्षं प्रस्तुतुं पूर्वकार्यं विहितमस्ति इति असूचयत्। अत्रान्तरे राष्ट्रिय स्वतन्त्र दलस्य सचिवालय उपवेशेन समानुपातिक सांसदानां कृते सप्तपञ्चाशत् जनानां नामानि परामृष्टानि सन्ति। उपवेशेन सप्तदश जना खस आर्य पक्षतः, षोडश जना जनजाति पक्षतः, त्रयो मुस्लिम जना, अष्टौ दलितः, नव मधेश पक्षतः, थारू पक्षतः, चत्वारो जनाश्च परामृष्टः सन्ति इति रासुपा दलस्य प्रवक्ता मनीष झा असूचयत्। एवमेव सानिपा वर्तिनी दलस्य केन्द्रीय कार्यालय उपविष्टेन नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेशेन समानुपातिक पक्षतः विंशतिर्जनानां नामानि निर्वाचन आयोगे प्रेषितानि सन्ति इति दलस्य प्रवक्ता देवराज चालिसी असूचयत्। एवमेव श्रम संस्कृति दलेन रूबी कुमारी ठाकुरस्य, राधिका रम्तेल इत्यस्य, अम्बिका देवी संग्रौला इत्यस्य, पूर्ण प्रसाद लिम्बू इत्यस्य च नामानि निर्वाचन आयोगे प्रस्तुतानि सन्ति। राष्ट्रिय प्रजातन्त्र दलस्य केन्द्रीय कार्य सम्पादन समितेः ह्यस्तनोपवेशेन भरत गिरी, ताहिर अली, खुशबू ओली, सरस्वती लामा चेत्येतेषां नामानि परामृष्टानि सन्ति इति प्रवक्ता मोहन कुमार श्रेष्ठः असूचयत्। सर्वोच्च न्यायालयेन धनुषा जनपदस्य प्रतिनिधिसभा सदस्यस्य प्रथम निर्वाचन क्षेत्रे रासुपा दलस्य प्रत्याशिनः किशोरी शाहस्य प्रत्याशिता निरसयितुं निर्वाचन आयोगस्य निर्णयस्य विरुद्धे पञ्जीकारिते याचिका निवेदने अन्तरिमादेशं प्रदातुम् अस्वीकृतमस्ति। न्यायाधीशयोः विनोद शर्मणः मेघराज पोखरेलस्य च संयुक्त न्यायपीठेन अन्तरिमादेशं प्रदातुम् अस्वीकृतमस्ति। शाहेन निर्वाचन आयोगस्य प्रत्याशिता निरसन सम्बद्धस्य निर्णयस्य विरुद्धे प्रत्याशितायाः सुनिश्चयनस्य याचनां विधाय याचिका निवेदनं प्रस्तुतमासीत्। प्रधानमन्त्री सुशीला कार्की निगदति गत फाल्गुन मासस्य एकविंशे दिवसे सम्पन्नस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य परिणामात् प्राचीन दलानां नेतृभि विचलितैर्न भाव्यम्। य राष्ट्रिय समाचार समितेः पत्रकारैः भाषमाणः प्रधानमन्त्री कार्की निर्वाचने नूतन दलेन आसन्न द्वि तृतीयांश बहुमतस्य प्राप्तेः अवस्थायां रासुपा दलेन जनतया प्रदत्तानां मतानां सम्मानो विधेयः, अल्पमत प्राप्तवतां दलानाम् उपेक्षया च न विधेयेति परामृष्टवती। प्रधानमन्त्री कार्की नेपालस्य परिपक्व नेतारः, जनतया न विस्मर्यन्ते इति अगदत्। प्रधानमन्त्री कार्की अद्य एकविधा लहरी वर्तते, भविष्यति अन्य विधा लहरी सम्भविष्यति इति प्रावोचत्। तदवसरे प्रधानमन्त्री कार्की निर्वाचने सहयोग विहितवद्भ्यः सर्वेभ्यः पक्षेभ्यः धन्यवादञ्च प्रायच्छत्। सर्वकारेण जलवायु परिवर्तनेन उत्पन्नस्य संकटस्य न्यूनीकरणाय जीविकोपार्जनाय च हरित जलवायु कोषात् प्राप्यमाणां कोटिद्वयं द्विचत्वारिंशत् लक्ष्याणि च अमेरिका देशीय डलर मुद्रां सहयोगरूपेण स्वीकर्तुं निर्णीतमस्ति। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टेन मन्त्री परिषद उपवेशेन नेपाले हिमरद विस्फोटनात् जलवायु परिवर्तनेन च दूरापन्न जलविप्लव सम्भावितस्य संकटस्य न्यूनीकरण करणाय जीविकोपार्जनाय सम्पद संरक्षण परियोजनायाश्च कृते संयुक्त राष्ट्र संघीय विकास कार्यक्रमस्य माध्यमेन हरित जलवायु कोषात् प्राप्यमाणः द्वे कोटि चत्वारिंशत् लक्ष्याणि सप्तषष्टिः सहस्राणि चतुःशतानि सप्तविंशतिश्च अमेरिका देशीय डलर मुद्रा स्वीकर्तुं निर्णीतमस्ति इति सर्वकारस्य प्रवक्ता गृहमन्त्री च ओमप्रकाश अर्यालः असूचयत्। एवमेव सर्वकारेण युद्ध प्रभावितेषु पश्चिम एशिया क्षेत्रस्य देशेषु विद्यमानानां नेपालीनां तत्कालमेव सहयोगाय उद्धाराय च प्रभावकारिणं प्रयासं विधातुं निर्णीतमस्ति। गृहमन्त्री अर्यालः रियाद स्थाने, आबुधाबी स्थाने, दोहा नगरे, कुवेत नगरे, मस्कट स्थाने, इस्लामाबाद नगरे, कायरो नगरे, तेल अभिव स्थाने च विद्यमानहि नेपाली दूतावासहि उद्धारस्य सहयोगस्य च कृते अतिरिक्तं प्रयासं विधातुं निर्णीतमस्ति इति असूचयत्। एवमेव गृहमन्त्री अर्यालः झेन्जी उनाम प्रदर्शनस्य क्रमे सम्भूतानां घटनानाम् अनुसन्धानाय निर्मितेन अनुसन्धानायोगेन प्रस्तुतं प्रतिवेदनम् अध्येतुं सर्वकारेण स्वीकर्तुं गुल्मी जनपदस्य ओमप्रकाश अर्यालं राष्ट्रियसभायाः रिक्ते सदस्यपदे नियोक्तुं राष्ट्रपतेः समक्षं परामृष्टुं च निर्णीतमस्ति इति असूचयत्। प्रधानमन्त्रिणा सुशीला कार्किणा सह नेपाली कांग्रेस दलस्य सभापतिना गगन थापा भिदेन सहितै पदाधिकारीभि मेलवार्ता विहिता अस्ति। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे प्रधानमन्त्रिणा कार्किणा सह सभापति थापा, दलस्य उपसभापति द्वयम् विश्वप्रकाश शर्मा, पुष्पा भूषालः, अन्य कांग्रेस दलस्य नेतारश्च ह्यो मेलवार्ताम् अकुर्वन्। सर्वोच्च न्यायालयेन रासोपा दलस्य सभापतेः रवि लामिछाने विदस्य विरूद्धस्य सम्पद शुद्धिकरण सम्बद्धस्य संघटितापराध सम्बद्धस्य च न्यायिक प्रकरणस्य प्रत्यावर्तनस्य निर्णयस्य विरूद्धस्य आदेशाभियासन निवेदनं पूर्वेद्युः विलोकनस्य क्रमे संस्थाप्य अद्य श्रवणं कर्तुं निश्चयः सम्भूतोऽस्ति। न्यायाधीशद्वयस्य सारंगा सुवेदिनः सुनील कुमार पोखरेलस्य च संयुक्त न्यायपीठेन ह्य न्यायिक निवेदनमेतद् विलोकनस्य क्रमे संस्थाप्य अद्य श्रवणं विधातुं निश्चय कृतोऽस्ति। नेपाल तैल निगमेन पेट्रोलियन्धनस्य मूल्यं वर्धितमस्ति। अन्तर्राष्ट्रिय आपणे सम्भूतायाः मूल्यवृद्धेः आपूर्ते व्यवस्थापनस्य च कारणं प्रदर्श्य निगमेन पेट्रोलियन्धने प्रतिलिटरमितं एकत्रिंशत् रूप्यकाणि, डीजलेन्धने प्रतिलिटरमितं चतुष्पञ्चाशत् रूप्यकाणि, पाचनेन्धने प्रतिभाण्डं षोडशोत्तर द्विशतं च रूप्यकाणि वर्धितानि सन्ति इति निगमेन ज्ञापितं वर्तते।